इयम् आकाशवाणी सम्प्रति वार्ताः श्रूयन्ताम् प्रवाचकः दिव्यानन्द झा। अथ वार्ताः। प्रधानमन्त्री नरेन्द्र मोदी अवदत् यत् भारतं सम्प्रति विश्वस्य कृते उच्च विकासस्य न्यून मुद्रास्फीतेः च आदर्शरूपम् अस्ति। नवदिल्ल्याम् एकस्मिन् कार्यक्रमे श्रीमोदी अवदत् यत् प्रवर्तमान वित्तवर्षस्य द्वितीये त्रिमासे सकल राष्ट्रियोत्पादमितौ वृद्धिः देशस्य वर्धमान प्रगतेः प्रतिबिम्बरूपास्ति। सः अवदत् यत् एषा न केवलं काचित् संख्या अपितु शक्तं विशालं च आर्थिकं प्रतीकरूपं यद्धि वैश्विकार्थव्यवस्थायाः विकासरूपेण भारतस्य स्थितिं प्रतिबिम्बयति।
8% से ज्यादा की ग्रोथ रेट हमारी प्रगति की नई गति का प्रतिबिंब है। ये सिर्फ नंबर नहीं है, ये स्ट्रांग मैक्रो इकोनॉमिक सिग्नल है। ये संदेश है कि भारत आज ग्लोबल इकोनॉमी का ग्रोथ ड्राइवर बन रहा है। और हमारे ये आंकड़े तब है जब ग्लोबल ग्रोथ 3% के आसपास है।
वित्तमंत्री निर्मला सीतारमण अवदत् यत् कर व्यवस्थां सरलीकर्तुं केन्द्र प्रशासनं कार्यरतम् अस्ति, अपि च आयकर प्रक्रिया सम्प्रति पुनः कठिना न भविष्यति। गतवासरे नवदिल्ल्याम् एकस्याः स्वायत्त पत्रकारिता संस्थायाः शिखर सम्मेलने सा अवदत् यत् नागरिकाणाम् उत्थानाय आयकरस्य प्रणाली पारदर्शिनी सरला च भवेत् इति अपेक्षितम् अस्ति। सा अवदत् यत् विगत वर्षद्वयात् प्रशासनं निरन्तरं सीमाशुल्कं न्यूनीकरोति, अपि च सीमाशुल्कं सरलम् अधिकं पारदर्शिनं च कर्तुं प्रयासरतं वर्तते। नागरिकोड्डयन मन्त्रालयः इण्डिगो विमान समवायं यात्रिभ्यः लम्बित देयराशिम् अचिरं प्रदातुं निर्दिष्टवान्। मन्त्रालयेन उक्तं यत् सर्वाभ्यः निरस्त बाधित वैमानिक सेवाभ्यः लम्बित देयराशेः प्रक्रिया अद्य रात्रौ 8 यावत् सम्पन्ना स्यात्। अपि च तेभ्यः यात्रिभ्यः पुनर्निर्धारण शुल्कम् अपि न स्वीकरणीयं येषां यात्रा विमान निरस्तीकरणात् प्रभाविता। एतादृशी स्थितिः तावत् पर्यन्तं प्रभाविनी भविष्यति यावत् पर्यन्तं स्थितिः सामान्या न भविष्यति। अस्य उद्देश्यं विपणिषु मूल्य निर्धारणम् अनुशासन सन्धारणं च वर्तेते, अपि च वरिष्ठ नागरिकाणां छात्राणां रुग्णाणां च उत्पीडनस्य अपाकरणं वर्तते। मन्त्रालयेन एतदपि उक्तं यत् देयराशि प्रक्रियायां यदि कीदृग्विधः अपि विलम्बः अनुपालनं वा भविष्यति तर्हि तत्कालमेव यथोचित पदक्षेपः ग्रहीष्यति। प्रियाः श्रोतारः, संस्कृत जगता सम्बद्धैः विभिन्नैः क्रियाकलापैः संवलितस्य संस्कृत साप्ताहिकीति विशिष्ट कार्यक्रमस्य प्रसारणम् आकाशवाण्याः FM गोल्ड प्रवाहिकातः अद्य मध्याह्ने 12:30 भविष्यति। भवन्तः सर्वे यथाकालं श्रोतुं प्रभवन्ति। अद्य दिल्ली, पंजाब, हरियाणा, चंडीगढ़, झारखंड, छत्तीसगढ़, मध्यप्रदेश, ओडिशासु भिन्नस्थलेषु शीतलहरी स्थितिः भवितुम् अर्हति इति भारतीयर्तुविज्ञान विभागस्य अनुमानः अस्ति। विभागेन उक्तं यत् अद्य यावत् पूर्वोत्तर भारतस्य असम, मेघालय, नागालैंड, मणिपुर, मिजोरम, त्रिपुरासु प्रातः सघन कुज्झटिकायाः संभावना अस्ति। अन्ते क्रीडावार्तासु, भारत दक्षिणाफ्रीका दलयोः मध्ये आयोजिता पुरुषाणाम् एकदिवसीय क्रिकेट क्रीडा श्रृंखला भारतेन गतवासरे 2-1 इत्येतेन खेलान्तरालेन जिता। विशाखापत्तने समायोजितायां तृतीयायाम् अन्तिमायां च स्पर्धायां भारतेन 170 धावनांकानां लक्ष्यं 40 क्षेपचक्राभ्यन्तरे एव एकक्रीडकहानिपूर्वकम् अधिगतम् इति वार्ताः।